इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः गणेशः हेगडे। अथ वार्ताः। उपराष्ट्रपतिः जगदीप धनकड़ः स्वास्थ्यकारणानि उद्धृत्य स्वपदात् त्यागपत्रं दत्तवान्। राष्ट्रपति द्रौपदी मुर्मू इत्यस्य लिखिते पत्रे धनकड़महोदयेन उक्तं यत् स्वास्थ्यसेवायाः प्राथमिकतायै चिकित्सापरामर्शस्य पालनाय च सः भारतस्य उपराष्ट्रपतिपदात् त्यागपत्रं दत्तवान् यत् तत्क्षणमेव प्रभावी भवति। सः राष्ट्रपतिं कार्यकाले निरन्तरसमर्थनाय कृतज्ञतां प्रकटितवान्। श्रीधनकड़ः प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः अपि च आदरणीयमन्त्रिपरिषदे अपि कृतज्ञतां प्रकटितवान्। सः अवदत् यत् प्रधानमन्त्रिणः सहकार्यं समर्थनञ्च अत्यमूल्यम् आसीत्, अपि च स्वकार्यकाले सः बहून् विषयान् अवगतवान्। संसदस्य मानसूनसत्रस्य प्रथमदिनं ह्यः विपक्षिदलैः विविधविषयेषु कृत अनेकव्यवधानानां साक्षी अभवत्। विपक्षदलनेतारः पहलगाम आतंकवादी आक्रमणम् ऑपरेशन सिन्दूर इति विषये अन्येषु विषयेषु च तत्कालं चर्चां कर्तुम् आग्रहं कुर्वन्ति स्म। आकाशवाण्याः संवाददात्रा सूचितं यत् एतेषु पूर्वोक्तविषयेषु चर्चायाः निरन्तरम् आग्रहं कृत्वा सदनद्वयं कोलाहलस्य साक्षी अभवत्। संसदीय कार्याणां मन्त्री किरेन रिजिजुः, रक्षामन्त्री राजनाथसिंहः च आश्वासनं दत्तवन्तौ यत् संसदि प्रत्येकं विषये चर्चां कर्तुं सर्वकारः सज्जः वर्तते। परन्तु विपक्षस्य कोलाहलस्य कारणात् लोकसभायाः कार्याणां त्रिवारं स्थगनमभवत्। परन्तु राज्यसभायाः कार्याणि प्रातः एकवारं स्थगनानन्तरं सुचारुतया चालितानि। तन्मध्ये न्यायमूर्तिणः यशवन्तवर्मा इत्यस्य निष्कासनाय केचन संसदसदस्याः लोकसभा अध्यक्षाय ओम बिर्लावर्याय ज्ञापनपत्रं दत्तवन्तः। संविधानस्य अनुच्छेदं 24-100, 17-200, 18-200 इत्यन्तर्गतं न्यायमूर्तिवर्मा विरुद्धं महाभियोगप्रस्तावे सर्वैः राजकीयदलैः आहत्य 45-100 लोकसभासदस्याः हस्ताक्षरं कृतवन्तः। न्यायाधीशः यशवन्तवर्मा इत्यस्य निवासस्थाने मुद्राराशेः प्रत्याग्रहणसम्बद्धस्य विषये संसत् अन्वेषण अभियोगं करिष्यति। भारतस्य ऋतुविज्ञानविभागेन अद्य हिमाचलप्रदेशे उत्तराखण्डे च अत्यन्तं प्रचण्डवृष्टेः पूर्वानुमानं कृतं वर्तते। आगामिदिनद्वये उत्तरभारतस्य अनेकेषु भागेषु प्रचण्डवृष्टिः सम्भवति। पूर्व मध्य पश्चिम ईशान्य राज्येषु अपि आगामिषु 2-3 दिनेषु प्रचण्डवृष्टिः भविष्यति। ऋतुविज्ञानविभागेन इदमपि अनुमानितमस्ति यत् बिहार, जम्मूकश्मीर, लद्दाख, झारखण्ड, ओडिशा तथा पश्चिम बंगाल राज्येष्वपि गर्जनवज्रपातैः सह वृष्टिः भविष्यति। श्वः श्रावणशिवरात्रिः भारतम् आचर्यते। तदुपलक्ष्य बहुसंख्याकाः कावड़यात्रिकाः भगवते शिवाय अर्पणार्थं पवित्रगंगाजलस्य संग्रहं कृत्वा हरिद्वारतः स्वगन्तव्यस्थानानि प्रति शीघ्रं प्रत्यागच्छन्तस्सन्ति। प्रफुल्लितजनसमूहस्य प्रबन्धनार्थम् आरक्षिबलैः यातायातयोजना कार्यान्विता वर्तते। प्रधानमन्त्री श्रीनरेन्द्रमोदी श्वः आरभ्य ब्रिटेनदेशस्य मालदीवस्य च द्वयोः राष्ट्रयोः यात्रां करिष्यति। यात्रायाः प्रथमे चरणे प्रधानमन्त्री श्वः आरभ्य 24-दिनांकपर्यन्तं ब्रिटेनदेशस्य समकक्षस्य कीर स्टार्मर इत्यस्य आमन्त्रणे ब्रिटेनदेशे भविष्यति। अस्मिन् भ्रमणावधौ प्रधानमन्त्री मोदी भारत ब्रिटेन द्विपक्षीय सम्बन्धानां सम्पूर्णपरिधिविषये प्रधानमन्त्रिणा स्टार्मर इत्यमुनेन सह विस्तृतविमर्शं करिष्यति। निजयात्रायाः द्वितीये चरणे प्रधानमन्त्री मोदी अस्य मासस्य 25-दिनांकात् मालदीवस्य राष्ट्रपतिः डॉ मोहम्मद मुइज्जू इत्यस्य आमन्त्रणे द्विदिवसात्मके मालदीव यात्रायां भविष्यति। क्रीडायां जार्जिया देशस्य बटुमी इत्यत्र प्रचाल्यमानायां एफआईडीई महिला चतुरंग विश्व चषक क्रीडायां भारतीय क्रीडिका दिव्या देशमुखः उपान्त्यचक्रं प्रविश्यमाना द्वितीया भारतीय महिला अभवत् इति वार्ताः।